नागार्जुनो गतो दूरम् योद्धुम् संशप्तकैस्तः अभिमन्युम् विना नान्यः समर्थो व्यूहभेदने वेदिते चक्रव्यूहेऽपि अत एव हि वीर्यवान् पार्थपुत्रस्य एकाकी कौरवैर्निर्घृणैः सह